ईसा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रभाषकः ध्रुव भट्टराई। प्रधानमन्त्री पुष्पकमला दाहाल प्रचण्ड भाषते योग सम्बद्धम् ज्ञान विज्ञानम् आविश्वम् अधियानानाम् अध्येतॄणाम् कृते नेपाल मूल गन्तव्यम् भवितुम् शक्नोति। शिक्षा विज्ञान प्रविधि मन्त्रालयस्य संयोजनेन आयोजितम् अन्तर्राष्ट्रिय योग दिवसस्य मूल समारोह ह्यः सम्बोधयन् प्रधानमन्त्री प्रचण्ड अवदत् योग न केवलम् शारीरिकाभ्यास एव अपितु निश्चित नियम विधि प्रक्रियासु संस्थाय अवलम्बनीय वैज्ञानिक जीवनशैली जीवन पद्धति च वर्तते। प्रधानमन्त्री प्रचण्ड योग ध्यानयो अभ्यासेषु व्यक्तिगत स्तरम् प्राप्तेषु सत्सु असंक्रमणशीलानाम् रोगाणाम् नियन्त्रणोपचार पुनस्थापनानाम् कृते महत्वपूर्ण योगदानम् भवतीति हेतोः एतत् व्यापकम् विधाय सर्वेषाम् स्वास्थ्य सुखयो साधनाय कार्यम् चालयितुम् योगस्य अभियन्तृणाम् योगगुरूणाम् च महती भूमिका स्थिति प्रत्यपादयत्। प्रधानमन्त्री प्रचण्ड प्राकृतिक वातावरणस्य दृष्टा परिकल्पितेन योगमायुर्वेद विश्वविद्यालयेन भविष्यति विश्वस्तरीय विश्वविद्यालयस्य रूपेण आत्मानं संस्थाप्य एतस्मिन् क्षेत्रे प्राज्ञिका नेतृत्वं विधातव्यम् इत्यत्र बलं प्रादात्। अस्मिन्नेवोपलक्ष्ये सशस्त्र प्रहरी बल नेपालस्य हलचोक स्थितस्य प्रधान कार्यालयस्य रंगशालायाम् आयोजिते योगाभ्यासे उप प्रधान गृहमन्त्री नारायण काजी श्रेष्ठ योग ध्यान व्यायामै मानवस्य स्वस्थ जीवन यापनाय साहाय्यं प्राप्यते इति विश्वासं व्यक्तवान्। असौ अवदत् योगेन ध्यानेन च राष्ट्रस्य शान्तिषु व्यवस्थापनकारी परिचालितेभ्यो राष्ट्रसेवक कर्मचारीभ्योऽपि ऊर्जा प्रदीयते। स्वास्थ्य जनसंख्या मन्त्री मोहन बहादुर बस्नेत नवमस अन्तर्राष्ट्रिय योग दिवसस्य अवसरे धुलिखेल स्थितेन काष्ठमण्डप विश्वविद्यालयेन निर्मितस्य योग प्राकृतिक चिकित्सालय भवनस्य उद्घाटनस्य अवसरे अभाषत योग प्राकृतिक चिकित्सा पद्धति च युगपदेव अवलम्बनीय। मन्त्री बस्नेत चिकित्सालयेषु उपचार व्ययसाध्यो जायमानोऽस्ति नेपालीनम् आयस्रोत वहनस्य अवस्था दुर्बलायमान च वर्तते इति तर्कयन् प्राकृतिक चिकित्सा पद्धतिम् अवलम्बितुम् परामृशत्। अन्तर्राष्ट्रिय योग दिवसस्यैव अन्तर्राष्ट्रिय योग दिवसस्यैव अवसरे नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली ललितपुरस्य च्यासल स्थिति दल कार्यालय आयोजित कार्यक्रमे अवोचत योगस्य माध्यमेन पश्चवर्तिनाम् नेपालम् अग्रे वर्धयितुम् अग्रेसरेर भाव्यम्। अध्यक्ष ओली अकथयत् नेपालस्य वर्तमान स्थिति परिवर्तनाय संकल्पस्य तपस ध्यानस्य च आवश्यकता वर्तते। अन्तर्राष्ट्रिय योग दिवस प्रतिवर्ष जून मासस्य एकविंशे दिवसे विभिन्नै जनचेतनामूलक समायोज्यते। मन्त्री परिषद उपवेशन नेपाल सर्वकारस्य बेलायत देशीय सर्वकारस्य च मध्ये द्विपक्षीय श्रम संविधा क्रियान्वयन सम्बद्ध कार्ययोजना स्वीकृता वर्तते। मंगलवासरे उपविष्टस्य मन्त्री परिषद उपवेशस्य निर्णयन सार्वजनिक कर्तुम् यः संचार सूचना प्रविधि मन्त्रालय आयोजित पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा सर्वकारण नागरिक निवेशन कोषस्य प्रदातव्यम् धनम् प्रवर्ध्य पञ्चाब जानी एकत्रिंशत् कोटि सप्तत्रिंशत् लक्षाणि पञ्चाशत् सहस्राणि च रूप्यकाणि स्थापयितुम् स्वीकृति प्रदत्तास्तीति अज्ञापयत्। मन्त्री परिषद उपवेशन महिलानाम् विरूद्धे विहितानाम् सर्वविध भेदभावानाम् उन्मूलनकारिणः 79-27 ख्रीष्टवर्षस्य महासन्धे सप्तमम् आवधिक प्रतिवेदनम् समितिम् प्रेषयितुम् स्वीकृति प्रदान सम्बद्ध निर्णयेन सह कचित वैदेशिक भ्रमणानुकृते स्वीकृति प्रदत्तेति मन्त्री शर्मा अज्ञापयत्। पत्रकार सम्मेलने आयव्ययकोष सम्बन्धी संचारकर्मिणाम् जिज्ञासेम संचार मन्त्री शर्मा आयव्ययकोष संशोधनेन असंशोधनेन च सर्वकारय प्रभाव न सृजत इति अतर्कयत्। मन्त्री शर्मा आयव्ययकम् असन्तुलितम् भूतम् इति धारणा परम्परागत अस्ति। आयव्ययकस्य संशोधनस्य स्थितौ सृष्टायाम् सत्यामपि तेन सर्वकारय प्रभाव नोद्भविष्यति इति समस्पष्टयत्। भारतीय चलचित्रस्य आदिपुरूषस्य सम्बन्धे संचारकर्मिणाम् अपरायम् जिज्ञासायम् संचार मन्त्री शर्मा सीता नेपालस्य पुत्री अस्तीति विषये किमपि द्वैविध्यम् नास्तीति चर्चयन्ति अवोचत। चलचित्रे समाविष्टस्य विवादास्पद संवादस्य चलचित्र नियमन समितेर्माध्यमेन अपाकरणानन्तरमेव चलचित्रम् प्रदर्शयितुम् अनुमति प्रदत्ता वर्तते। उप प्रधान गृहमन्त्री नारायणकाजी श्रेष्ठ वर्षा यामज विपदा सम्भाव्य क्षति अवस्थाय तत्कालं विधातव्यान् कारणं सर्वकारस्य प्राथमिकताश्च विशेष हुय सम्बद्ध पक्षैः मन्त्रालय व्यमृशत। उप प्रधानमन्त्री श्रेष्ठ वर्षा यामज विपदा पूर्व भागस्थ पर्वतीय क्षेत्रस्य ताप्लेजुङ पाँचथर शंखुवासभा प्रवृत्ति जनपदेषु सम्भूताया छत्ता सहितेषु विषयेषु एवं व्यमृशत। तदवसरी उप प्रधानमन्त्री श्रेष्ठ अन्वेषणो धारावी नैरन्तर्यस्य संकटापन्न नागरिकाणां सुरक्षित स्थलेषु स्थानान्तरणस्य आहतानां जनानां उपचारस्य अभावग्रस्तेषु स्थानेषु खाद्यान्न परिवहनस्य पेयजल विद्युतापूर्तेः गमनागमनस्य पुनस्थापनायाश्च कार्याणि प्राथमिकता प्रावधानी सन्तीति अज्ञापयत। विमर्शनी भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला जल विप्लव भूस्खलनाभ्यं केवलं मार्ग सेतुषु चत्वारिंशत कोटीनां रूप्यकाणां क्षतिर्भूतेति ज्ञापन अगदत। मेची राजमार्गस्य संचालनाय हेवाखोला नद्यां दश दिवसावधौ बेलीब्रिज सेतु निर्मास्यते। प्रतिनिधि सभा उपवेशे एतत् विक्रम वर्षीयस्य विनियोजन विधेयकस्य मन्त्रालयगत रूपेण विभिन्न शीर्षकेषु विमर्शनं ह्योऽपि अचलत्। एतत् विक्रम वर्षीय विनियोजन विधेयकस्य विभिन्न शीर्षकेषु विहितस्य विमर्शनस्य अन्तर्गतं युवा क्रीडा शिक्षा विज्ञान प्रविधि विधि न्याय संसदीय विषय कृषि पशुपक्षी विकास मन्त्रालयानां आयव्यय विवरणस्य विमर्शने सहभागिन सांसदः संविधाने मौलिकाधिकारणां रूपेण व्यवस्थितानां वृत्त्युपार्जन खाद्य सुरक्षावास प्रवृत्तीनाम् अधिकारणं क्रियान्वयनाय शीघ्रम् आवश्यक विधि निर्माणम् अयाचन्त। संविधाने मौलिकाधिकारणां रूपेण स्थापितेषु विषयेषु संविधानस्य निर्माणस्य अष्टानां वर्षाणां व्यतीतेष् पश्चादपि विधे अनिर्माणं दुःखद विषयस्थिति च सांसदः अवोचन्। एवमेव सांसदः अष्टाविंशत्युत्तर द्विशतम विक्रम वर्षस्य शिक्षाधिनियमस्य अधुनावधि असंशोधनेन द्विविधाया जनशक्ति निर्माणं जायमानम् अस्ति इत्यत्र सर्वकारेण ध्यानं प्रदेयम्। सप्तसप्त्यधिक द्विशतम विक्रम वर्षे क्रियान्वित क्रीडाधिनियम बृहद्रूपेण अधुनापि नानीत इति विचर्च्य क्रीडा परिषद राजनीतिकरणस्य केन्द्रस्य रूपेण न स्थापनीयति च बलं प्रादुः। सांसदः कृषे कृषकेभ्यश्च प्रोत्साहनं विधाय कृषौ देशम् आत्मनिर्भरं कृत्वा निर्यातस्यावस्थां यावत् नेपालं प्रापयितुं विशेषाभियानस्यैव आवश्यकतास्तीति धारणं व्यक्तवन्तः। एवमेव सांसदः नेपाले मलोद्योग स्थापनै भाषणमेव न अपितु मलोद्योगं संस्थाप्यैव मलस्य परिपूर्ति आवश्यकास्तीति अवोचन्। इति समाचारः।